अन्यदा यामिनी समये प्रभावती गमनाय शुकम् आपृच्छति कीरह उवाच गच्छ रंभ उरु गमनं युज्यते गजगामिनी यदि वा अस्ति उत्तरं कर्तुं श्रीधरः ब्राह्मणः यथा प्रभावती आह कथम् एतत् शुक्कः ब्रूते चर्मकूटे ग्रामे द्विजः श्रीधरः नाम तत्र एव चंदन आख्यः चर्मकारः तत् पार्श्वात् श्रीधरेण उपानह युगलं कारितं चर्मकारः अपि नित्यं एव द्रव्यं याचते विप्रः अपि वदति त्वां हृष्टचित्तं करिष्ये एवं सुमहत् कालः ययौ सः विप्रः अन्यदा चर्मकारेण विधृतः धनं विना सः विप्रः कथं मुच्यते तत् कथय इति प्रश्नः उत्तरं शुकः प्र आह एतस्मिन् अन्तरे ग्रामपालस्य गृहे सुतः जातः ततः द्विजः प्र आह छल अन्वेषी सन् चर्मकृत् मया पूर्वम् उक्तं त्वां हृष्टचित्तं करिष्यामि तद् अस्मिन् सुते जाते त्वं हृष्टचित्तः न वा इति यदि सः ब्रूते न अहं हृष्टचित्तः इति तदा राज्ञा ग्राह्यः स्यात् अन्यथा च द्रव्यं याति ततः तेन उक्तं हृष्टचित्तः अहं जातः ततः द्विजः छलेन आत्मानं विमुच्य गतः ततः भामिनि यदि एवम् उत्तरं जानासि तदा गच्छ इति कथां श्रुत्वा प्रभावती सुत्ता